इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेशचन्द शर्मा। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य प्रातः 11 वादने आकाशवाण्यां मन की बात इति तस्मिन् कार्यक्रमे दैशिकैः वैदेशिकैश्च साकं स्वविचारान् विनिमयीकुर्यात्। मन की बात इत्येतस्य मासिक कार्यक्रमस्य एतत् 121वां प्रसारणं स्यात्। मन की बात इत्येतस्य प्रसारणम् आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः भवेत्। सममेव कार्यक्रमः एषः आकाशवाण्याः दूरदर्शनस्य प्रधानमन्त्री कार्यालयस्य सूचना प्रसारण मन्त्रालयस्य च यूट्यूब वाहिनीभिः अपि श्रोतुं शक्यते। कार्यक्रमस्य एतस्य हिन्दी भाषायां प्रसारणानन्तरम् आकाशवाण्या क्षेत्रीय भाषासु अपि प्रसारणं भवेत्। गृहमन्त्रालयेन पहलगाम आतंक्याक्रमणस्य अन्वेषणार्थं राष्ट्रिय अन्वेषण संस्था NIA इत्येतस्य नियुक्ति कृता। सूचनानुसारि प्रतिपादितं यत् सम्प्रति एषा संस्था आतंक्याक्रमणस्य औपचारिकम् अन्वेषणं कुर्यात्। एतत् पूर्वं राष्ट्रिय अन्वेषण संस्था NIA इत्येतस्य दलेन एकेन आतंक्याक्रमण स्थलस्य यात्रा कृता। अवधेयं यत् आक्रमणम् एतत् मासेऽस्मिन् 12वें दिनांके जम्मू कश्मीरस्य पहलगाम स्थलस्य बैसरन वनक्षेत्रे जातम्, यत्र 26 संख्याकाः जनाः मृताः, नैके हताहताश्चापि। सूचना प्रसारण मन्त्रालयेन राष्ट्रिय सुरक्षाहितं निध्याय सर्वाभ्यः प्रसारण परक वाहिनीभ्यः आतंक विरुद्ध अभियानानां सुरक्षा बल पदक्षेपानां च सजीव प्रसारणं न स्यात् इति परामर्शः सर्वेभ्यः प्रसारितः। एषः परामर्शः सर्वाभ्यः प्रसारण वाहिनीभ्यः, सूचना संस्थाभ्यः, सामाजिक अन्तर्जाल पटलेभ्यश्च प्रसारितः। राष्ट्रिय स्वयंसेवक संघ प्रमुखेण मोहन भागवत इत्यमुना सबलं प्रतिपादितं यत् अहिंसा भारतस्य धर्मः, जीवन मूल्यानां महत्वपूर्णः अंशः, परं उत्पीडिकेभ्यः आतंकिभ्यः प्रत्युत्तर प्रदानमपि धर्म एव। कार्यक्रमं सम्बोधयन् गतदिने नवदेहल्यां द हिन्दू मैनिफेस्टो इत्येतस्य पुस्तकस्य विमोचनावसरे कार्यक्रमं सम्बोधयन् भागवतः प्रतिपादितवान् यत् भारतेन परेभ्यः न कदापि कष्टं प्रदीयते, परं यदि अन्ये केचन संलग्नाः तर्हि न समाधानम्। भागवतः सबलं प्रतिपादितवान् यत् अहिंसा अस्माकं देशे पूर्णरूपेण समाहिता।
हम कभी भी अपने पड़ोसियों की कोई अपमान कोई हानि नहीं करते, लेकिन ऐसा हम रहते हैं तो भी अगर कोई उतर आए बुराई पर तो हमारा दूसरा इलाज क्या है? राजा का कर्तव्य है प्रजा की रक्षा करना, राजा अपना कर्तव्य करेगा। दोनों धर्म है, इसलिए गीता में अहिंसा का ही उपदेश है। अहिंसा का उपदेश इसलिए किया कि अर्जुन लड़े और मारे।
अग्रे वार्तायाम प्रियाः सुरभारती समुपासकाः श्रोतारः, संस्कृत जगत सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 11:30 वादनतः भविष्यति। कृपया शृण्वन्तु। अन्ते च क्रीडा वार्तासु इण्डियन प्रीमियर लीग इत्येतस्यां क्रिकेट लीग प्रतिस्पर्धायां गतदिने कोलकाता नगरस्य ईडन गार्डन इति क्रीडांगणे समायोजितं द्वन्द्वं वर्षाकारणेन बाधितं, तदनन्तरं स्थगितं च। एतत्पूर्वं प्रथमं दण्डेन क्रीडयता पंजाब किंग्स इत्येतेन दलेन 1200 धावनांकाः समर्जिताः, प्रत्युत्तरे कोलकाता नाइट राइडर्स इत्येतेन दलेन यदा केवलं 7 धावनांकाः समर्जिताः, तदनन्तरं वर्षाकारणेन द्वन्द्वं बाधितं ततः स्थगितं च इति वार्ताः।